एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभा सदस्यानाम् एतत् विक्रमवर्षीयस्य निर्वाचनस्य अन्तर्गतम् दलैः समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य प्रत्याशिनाम् गोप्यसूची निर्वाचनायोगे अर्पिता अस्ति। नेकपा एमाले दलेन आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य प्रतिनिधिसभायाः सदस्यानाम् निर्वाचनस्य कृते समानुपातिक पक्षस्य प्रत्याशिनाम् गोप्यसूची निर्वाचनायोगे ह्य अर्पितो वर्तते। तथैव नेपाली कांग्रेस, नेपाली कम्युनिष्ट दल, रासोपा प्रभृतिनाम् दलैश्च स्वदलस्य समानुपातिक प्रणाल्याः प्रत्याशिनाम् गोप्यसूची निर्वाचनायोगे अर्पिता वर्तते। राजनीतिक दलैः अर्पितायाः समानुपातिक पक्षस्य प्रत्याशिनाम् गोप्यसूच्याः अस्यैव पौषमासस्य पञ्चदश दिवसात् विंशम् दिवसम् यावत् अनुसन्धानम् भविष्यति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। पौषस्य विंशम् दिवसम् यावत् आयोगेन अनुसन्धानानन्तरम् आगामिनः माघमासस्य विंशे दिवसे समानुपातिक निर्वाचन प्रणाल्याः प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनस्य निर्वाचन आयोगस्य कार्यतालिका वर्तते। नेपाली कांग्रेस दलस्य नेता पूर्व गृहमन्त्री च रमेश लेखकः निगदति गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूते जनजीवनाम् आन्दोलने बलप्रयोगार्थं कीदृशोऽपि लिखितो मौखिको वा आदेशः प्रदत्तो नासीत्। जनजीवनाम् आन्दोलनस्य क्रमे सम्भूतायाः क्षतेः अनुसन्धानाय निर्मिति अनुसन्धानायोगे संकथनानन्तरं पूर्वगृहमन्त्री लेखकः पत्रकार सम्मेलने बलप्रयोग सम्बद्ध कीदृशोऽपि लिखितो मौखिको वा आदेशः आत्मना न प्रदत्तः इति समस्पष्टयत्। तत्पूर्वं पूर्व गृहमन्त्री लेखकः उच्चस्तरीयानुसन्धानायोगस्य समक्षम् आयोगस्य पदाधिकारिभिः पृष्ठानां प्रश्नानाम् उत्तरस्य प्रदानानन्तरं षण्णां पृष्ठानां लिखितम् उत्तरमपि प्रास्तौत्। कतिपय दिनेभ्यः देशस्य तराई क्षेत्रस्य विभिन्नेषु जनपदेषु अत्यधिक शैत्येन जनजीवनं प्रभावितं वर्तते। शैत्येन तराई मधेश क्षेत्रस्य प्रायः 20 जनपदाः प्रभाविताः सन्ति। तराई क्षेत्रस्य कतिपय जनपदेषु आदिनं कुहरस्य प्रसरणं भवतीति हेतोः बालबालिकाः, वृद्धाः, दीर्घरोगिणश्च अत्यधिक रूपेण प्रभाविताः वर्तन्ते। शैत्यस्य कारणेन विशेषतः मधेश प्रदेशस्य बारा, पर्सा, सर्लाही, धनुषा, महोत्तरी, सुनसरी प्रभृतयो जनपदाः, लुम्बिनी प्रदेशस्य बाके, वर्दिया जनपदौ, सुदूरपश्चिम प्रदेशस्य कैलाली कञ्चनपुर जनपदौ च प्रभाविताः सन्ति। एवमेव मधेश प्रदेशस्य कतिपय पालिकाभिः एकसप्ताहस्य कृते विद्यालयाः पिधापिताः सन्ति। तथैव मधेश प्रदेशस्य बहुषु जनपदेषु शैत्यस्य कारणेन रुग्णाः जनाः उपचाराय चिकित्सालयं प्राप्ताः सन्ति। चिकित्सालयाः शैत्यस्य रुग्णैः पूरिताः सन्ति। अत्यधिक शैत्यस्य कारणेन आपणेषु जनानां गमनागमनं न्यूनीभूतमस्ति। अत्रान्तरे शैत्यात् सुरक्षायै उष्णप्रदायक वस्त्राणि धारयितुम्, उष्णं रसयुतं भोजनं स्वीकर्तुं च चिकित्सकैः परामर्शः प्रदत्तः अस्ति। रासोपा नाम्नो राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछानेभिदस्य काष्ठमण्डप महानगरपालिकायाः प्रमुखस्य बालेन्द्र शाहस्य, ऊर्जोमन्त्रिणः कुलमान घिसिङ इत्यस्य संरक्षकत्वे विद्यमानस्य उज्यालो नेपाल इति दलस्य च मध्ये दलैकीकरणाय सहमतिर्धृता अस्ति। रासोपा दलस्य उज्यालो नेपाल इति दलस्य बालेन्द्र शाहस्य च मध्ये एकता सम्बद्धे त्रिपक्षीय सहमतिपत्रे ह्यो हस्ताक्षराणि सम्पन्नानि सन्ति। मतेरनुसारेण दलस्य नेतृत्व संरचनायां केन्द्रीय सभापतिः रवि लामिछाने, उपसभापतिः कुलमान घिसिङ च भविष्यतः, एवमेव डोल प्रसाद अर्यालः, स्वर्णिम वाग्ले च उपसभापति भवतः। रासोपा दलस्य सभापतिना उज्यालो नेपाल इति दलस्य अध्यक्षेण अनुप कुमार उपाध्यायेन च हस्ताक्षरिते सहमतिपत्रे बालेन्द्र शाहस्य साक्षीरूपेण हस्ताक्षरम् वर्तते। दलैकीकरणस्य पश्चात् नूतन दलस्य नाम राष्ट्रिय स्वतन्त्र पार्टी दलस्य निर्वाचन चिन्ह घण्टा च भविष्यतः इति सहमतिपत्रे उल्लिखितम् वर्तते। गुरुङ समुदायेन अद्य तत्समुदायस्य नववर्षस्य स्वागतं विधाय तमु लोसार पर्व भव्यरूपेण आयोज्यमानमस्ति। गुरुङ समुदायस्य लो शब्दस्य अर्थः वर्षं, सार शब्दस्य अर्थः परिवर्तनं भवति। अतः वर्ष परिवर्तनस्य दिनं तमु लोसार पर्वेति नाम्ना तै समाद्रियते। गुरुङ समुदायस्य बाहुल्ययुतेषु लमजुङ, गोर्खा, तनहु, स्याङजा, मनाङ, कास्की पर्वत प्रभृति जनपदेषु सूर्यतापः प्रथमम् आगच्छति। इत्यतः पौषमासस्य पञ्चदशे दिवसे तमु लोसार नामकं पर्वेदं समायोज्यते। एतदनन्तरं क्रमेण शेर्पा, तामाङ समुदायोः वसतियुते क्षेत्रे सूर्यतापः आगच्छति। इत्यतः शेर्पा तामाङ समुदायस्य जनैः माघ फाल्गुन मासयोः पर्वेदं समायोज्यते। लोसार पर्वणः अवसरे अद्य राजधान्यां काष्ठमण्डपे देशस्य अन्येषु बहुषु स्थानेषु च विभिन्नः कार्यक्रमः समायोजितः सन्ति। संचार सूचना प्रविधि मन्त्री जगदीश खरेलः आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणं प्रतिनिधिसभा सदस्यानां निर्वाचनं शान्तिरूपेण सम्पादयितुं शान्तिपूर्णरूपेण सम्पादयितुं सुरक्षाकर्मिणां मनोबलम् उच्चमस्ति इति उक्तवान् वर्तते। गोरखा जनपदस्य पत्राचार कार्यालयस्य ह्य अत्याधुनिक पत्राचार कार्यालय घोषणायाः क्रमे मन्त्री खरेलः राजनीतिक परिवर्तनस्य विभिन्नेषु चरणेषु सम्पत्स्यमानानि निर्वाचनानि सुरक्षाकर्मिणां प्रभावकारि व्यवस्थायां सम्पन्नानि अभूवन् इति चर्चयन् अस्मिन् वर्षेऽपि निर्वाचनस्य सफलतायै कथं विधापि शंका नास्ति इति अवोचत्। उपराष्ट्रपतिः रामसहाय प्रसाद यादवः भाषते सामाजिक सद्भावः समुन्नतः समाजश्च सर्वेषां सामूहिक ध्येयविषयो वर्तते। राष्ट्रिय दलित आयोगेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे उपराष्ट्रपतिः यादवः न्यायस्य अवसराणां समानतायाः समावेशितायाश्च मार्गे दलितानाम् अधिकारान् इतोऽपि सुदृढान् विधातुं बलं प्रादात्। प्रधानमन्त्रिणा सुशीला कार्किणा सह राष्ट्रियसभायाः अध्यक्षेण नारायण प्रसाद दाहालेन शिष्टाचार मेलवार्ता विहितास्ति। अध्यक्षेण दाहालेन ह्य सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालयं प्राप्य प्रधानमन्त्रिणा कार्किणा सह मेलवार्ता विहिता। तदवसरे अनयोर्मध्ये आसन्न प्रतिनिधिसभा सदस्यानां निर्वाचनस्य, राष्ट्रियसभा सदस्यानां निर्वाचनस्य, राष्ट्रियसभायाः गतिविधीनां च विषयेषु विमृष्टमस्ति इति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। स्वास्थ्य जनसंख्या मन्त्री डा सुधा गौतमः आत्मनः मन्त्रिपदस्य निर्वहणानन्तरं मासद्वये मानस्वास्थ्य स्वास्थ्य सुरक्षण कोषस्य सुधारे औषधानां व्यवस्थापने मातृ नवजात शिशु सम्बद्धे स्वास्थ्य च महत्वपूर्ण नीतिगता कार्यक्रमगताश्च उपलब्धय अधिगता वर्तन्ते इति सूचयति।